తుల్యరూపమసితోత్పలమక్ష్ణోః కర్ణగం నిరుపకారి విదిత్వా యోషితః సుహృదివ ప్రవిభేజే లంభితే క్షణరుచిర్మదరాగః తుల్యేతి అక్ష్ణోః తుల్యరూపం అక్షితుల్యాకృతి యోషితః కర్ణగం కర్ణావతంసీకృతం అసితోత్పలం నిరుపకారి అనుపకారకం విదిత్వా జ్ఞాత్వా తత్కార్యశోభాయాః కర్ణాంతవిశ్రాంతేన అక్ష్ణా ఏవ కృతత్వాదితి భావః మదరాగః సుహృదివ ఉత్పలస్య బంధురివ అనిష్టవారకత్వాదితి భావః లంభితేక్షణరుచిః ఆహితనయనకాంతిః సన్ ప్రవిభేజే వర్ణాంతరాపాదనేన ప్రవిభక్తవాన్ అవైలక్షణ్యకరాత్ అక్ష్ణః వ్యావర్తయామాస తతః విచ్ఛిత్తికరత్వాదితి భావః క్షీణయావకరసోప్యతిపానైః కాంతదంతపదసంభృతశోభః ఆయయావతితరామివ వధ్వాః సాంద్రతామధరపల్లవరాగః క్షీణేతి అతిపానైః క్షీణయావకరసః క్షీణలాక్షారాగః అపి కాంతస్య దయితస్య దంతపదేన దంతక్షతేన సంభృతా శోభా యస్య సః వధ్వాః అధరపల్లవరాగః అతితరాం అతిమాత్రం అతిశబ్దాత్ తరప్రత్యయే కిమేత్తింగవ్యయ ఇత్యాదినా ఆం ప్రత్యయః తద్ధితశ్చాసర్వవిభక్తిః ఇత్యవ్యయసంజ్ఞా సాంద్రతాం ఘనత్వం ఆయయావివ ప్రియోపభోగచిహ్నమండితానాం కామిన్యవయవానాం కిమన్యైః మండనైరితి భావః తత్ర క్షీణస్యాపి సాంద్రతా ఇతి విరోధాత్ కాంతదంతేత్యాది విశేషణగత్యా సాంద్రత్వే హేతూక్త్యా కావ్యలింగం తత్సంకీర్ణా చ ఉత్ప్రేక్షా రాగకాంతనయనేషు నితాంతం విద్రుమారుణకపోలతలేషు సర్వగాపి దదృశే వనితానాం దర్పణేష్వివ ముఖేషు మదశ్రీః రాగేతి వనితానాం సర్వగా అపి సర్వాంగగతా అపి అంతాత్యంత ఇత్యాదినా డహ మదశ్రీః రాగేణ కాంతాని నయనాని యేషు తేషు విద్రుమవత్ అరుణాని కపోలతలాని యేషు తేషు ముఖేషు దర్పణేష్వివ నితాంతం దదృశే తేషాం నయనాది నైర్మల్యేన రాగాభివ్యక్తిసంభవాదితి భావః అత్ర మదశ్రీః సర్వగతాపి ముఖేష్వేవ దదృశే ఇతి విరోధః తస్య ముఖవిశేషణైః సమాధానాత్ కావ్యలింగానుప్రాణితః విరోధవదాభాసః అలంకారః స చ ఉపమయా సంసృజ్యతే బద్ధకోపవికృతీరపి రామాః చారుతాభిమతతాముపనిన్యే వశ్యతాం మధుమదో దయితానాం ఆత్మవర్గహితమిచ్ఛతి సర్వః బద్ధేతి బద్ధా కోపేన వికృతిః యాభిః తాః తథా భూతా అపి రామాః కర్మ చారుతా తాసాం సౌందర్యం కర్త్రా అభిమతతాం ప్రియవాల్లభ్యం ఉపనిన్యే సౌందర్యేహి వికృతిమపి రోచయతే ఇతి భావః मधुमदः दयितानां वश्यतां विधेयत्वं उपनिन्ये तथा हि सर्वः आत्मवर्गहितं इच्छति अतः चारुता स्त्रीत्वात् स्त्रीणाम् उपचकार मधुमदस्तु पुंस्त्वात् पुंसामिति युक्तमित्यर्थः अत्र विकृता अपि अभिमताः कुपिताः अपि वश्याः इति विरोधस्य चारुतामदाभ्याम् समाधानात् उभयथापि विरोधाभासः भवन् अर्थान्तरन्यासेन संसृज्यते वाससं शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि योषिताम् विदधति गुणपक्षे निर्ममार्ज मदिरा वचनीयम् वाससामिति उपनाभि नाभिसमीपे वाससाम् शिथिलताम् ह्रीनिरासम् लज्जात्यागम् अपदे कुपितानि अस्थानकोपांश्च गुणपक्षे गुणकोटौ विदधती निवेशयन्ती दोषानपि एतान् गुणान् कुर्वतीत्यर्थः मदिरा अपि योषितं वचनीयं ननाभिं दर्शयेत् इति शास्त्रनिषिद्धाचरणनिन्दां निर्ममार्ज तथा दोषाणामपि वस्त्रशैथिल्यादीनां तदानीं गुणत्वात् न कश्चिद् वचनीयावकाशः इत्यर्थः भर्तृशूपसखि निक्षिपतीनाम् आत्मनो मधुमदोद्यमितानाम् व्रीडया विफलया वनितानाम् न स्थितं न विगतं हृदयेषु भर्तृष्विति उपसखि सखी समीपे समीपार्थे अव्ययी भावः आत्मनः स्वदेहान् आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि इति वैजयन्ति भर्तृषु निक्षिपतीनां निपातयन्तीनां भर्तॄणामुपरि पतन्तीनामित्यर्थः आच्छीनद्योर्नुम् इति विकल्पात् नुमभावः कुतः मधुमदेन उद्यमितानां प्रेरितानां न तु स्वेच्छया इति भावः वनितानाम् अनुरक्तस्त्रीणाम् वनिता जनितात्यर्थानुरागायां च योषिति इति विश्वः हृदयेषु विफलया अनुचिताचरणादिति भावः व्रीडया न स्थितं न विगतं वैफल्यात् तस्याः मदोपाधिकत्वाच्चेति भावः अत एव न उभयनिषेधविरोधः रुन्धति नयनवाक्यविकासं सादितोभयकरा परिरम्भे व्रीडितस्य ललितं युवतीनां क्षीमता बहुगुणैरनुजह्रे रुन्धतीति नयनानां वाक्यानाञ्च विकासं प्रागल्भ्यं रुन्धती प्रतिबध्नती तथा परिरम्भे आलिङ्गने सादितौ स्तम्भितौ उभौ करौ ययासा युवतीनां सम्बन्धिनी क्षीबता मत्तता कर्तरिक्तः अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः इति निपातनात् साधुः क्षीबा मत्ता तस्य भावः क्षीबता त्वतलोः गुणवचनस्य पुंवद्भावः वक्तव्यः बहुगुणैः दृष्टिसङ्कोचादिभिः व्रीडितस्य व्रीडायाः भावे क्तः ललितं विलासं अनुजह्रे अनुचक्रे कर्तरि लिट् व्रीडाकार्यकरत्वात् व्रीडानुकरणमित्युपमालङ्कारः योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् योषिदिति उद्धतः उत्कटः मनोभवेन यो रागः प्रीतिः सः यस्यास्सा योषित् मानवत्यपि दयितस्य अङ्कम् ययौ यतः मानात् रागः बलीयान् इति भावः लाघवदोषम् परिहरति कारयतीति अनिभृता चपला न कार्यकारिणी इत्यर्थः वारुणी मदिरा गुणेषु दोषेषु च विषये सर्वोऽपि द्वन्द्वः विभाषया एकवद्भवति रहस्यविभेदं रहस्यभङ्गं कारयति खलु बलान्निगूहितावपि गुणदोषौ प्रकाशयतीत्यर्थः यतः अतिगूढरागप्रकटनं प्रकटमानत्यागश्च प्रमत्तायाः न लाघवम् आवहति अबुद्धिपूर्वकत्वादिति भावः आहितेनु मधुना मधुरत्वे चेष्टितस्य गमितेनु विकासम् आबभौ नव इवोद्धतरागः कामिनीष्वसरः कुसुमेषोः आहित इति मधुना मद्येन चेष्टितस्य रतिव्यापारस्य मधुरत्वे माधुर्ये आहिते नु सम्पादिते नु प्रागसत्येव मनोहरत्वे सम्प्रत्युत्पादिते वा विकासं गमितेनु प्राक्सत्येव माधुर्ये प्रकर्षं प्रापिते वा उद्धतरागः उद्रिक्तरागः अत एव कुसुमेषोः कामिनीषु अवसरः प्रवेशः नव इव आबभौ नित्यसन्निहितोऽपि मदनः कामिनीषु मदकृत तात्कालिकचेष्टामाधुर्यात् रागोद्रेके सति अपूर्ववदुद्दीप्तोऽभूदित्यर्थः संशयानुप्राणिता इयम् उत्प्रेक्षा मा गमन्मदविमूढधियो नः प्रोज्झ्यरन्तुमिति शङ्कितनाथाः योषितो न मदिराम् भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि मागमन्निति शङ्कितनाथाः अविश्वस्तपुरुषाः योषितः मदेन विमूढधियः स्तब्धबुद्धयः नः अस्मान् प्रोज्झ्य विसृज्य प्रपूर्वादुज्झतेः समासेनैपूर्वे त्वोल्यप् रन्तुम् मागमन् मागच्छन्त्विति मनीषया इति शेषः गमेर्माङि लुङ् नमाङ्योगे इत्यडागमप्रतिषेधः मदिरां भृशम् अतिमात्रं नेषुः नेच्छन्ति स्म किन्तु भर्तृवियोगभयात् ईशदेवपपुरित्यर्थः तथा हि प्रेम स्नेहः अपदे अस्थानेऽपि भयानि अनिष्टानि पश्यति उत्प्रेक्षते शङ्कते इति यावत् शङ्काहेतौ प्रेम्णि कर्तृत्वोपचारः चित्तनिर्वृतिविधायि विविक्तम् मन्मथो मधुमदः शशिभासः सङ्गमश्च दयितैस्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् चित्तेति चित्तस्य निर्वृतिविधायि सुखकरं विविक्तं रहः विविक्तं रहसि स्मृतम् इति विश्वः मन्मथः मधुमदः मद्यमदः शशिभासः चन्द्रिका दयितैस्सह सङ्गमश्च वृद्धो यूना इति निर्देशात् सहशब्दप्रयोगेऽपि सहार्थे तृतीया एतानि प्रमदानां स्त्रीणां प्रेम वियोगासहत्वावस्थासंभोगं कामपि भुवं काञ्चिद्दशां नयन्ति स्म रत्यवस्थामपि अतिक्रम्य शृङ्गारावस्थां क्रीडामयीं निन्युरित्यर्थः प्रेमाभिलाषो रागश्च स्नेहप्रेमरतिस्तथा शृङ्गारश्चेति संभोगः सप्तावस्थः प्रकीर्तितः इत्युक्तं रसरत्नाकरे प्रेमादिदृक्षारम्येषु तच्चिन्ताप्यभिलाषकः रागस्तत्सङ्गबुद्धिः स्यात् स्नेहस्तत्प्रवणक्रिया तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनं शृङ्गारस्तत्समं क्रीडा संभोगः सप्तधाक्रमः इति धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये मानिनीरतिविधौ कुसुमेषुः मत्तमत्त इव विभ्रममाप धार्ष्ट्येति धार्ष्ट्येन प्रागल्भ्येन लङ्घिता अतिक्रान्ता यथोचिता योग्या भूमिः मर्यादा यस्मिन् तथोक्ते चुम्बनताडनमणितसीत्कारपुरुषायितादौ स्वयम् उच्छृङ्खलवृत्तिरिति भावः निर्दयं यथा तथा विलुलितानि आकर्षणाकुलितानि अलकाः माल्यानि च यस्मिन् तस्मिन् मानिनीरतिविधौ सुरते कुसुमेषुः कामः मत्तमत्तः मत्तप्रकार इव विभ्रमं विजृम्भणम् आप प्राप मत्तः किं न करोतीति भावः कारयितरि कर्तृत्वोपचारात् उत्प्रेक्षा शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुषु ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे शीध्विति शीधुपानेन मद्यपानेन विधुरेषु विह्वलेषु मैरेयमासवः शीधुः इत्यमरः अत एव वपुषु अङ्गेषु निघ्नतां प्रियपराधीनताम् उपगतेषु सत्सु अधीनो निघ्न आयत्तः इत्यमरः वधूनां सम्बन्धिनि रतिरसे सुरतरसास्वादे आहितभावं दत्तचित्तं कामिषु विषये ईहितं चुम्बनताडनादिचेष्टितं वीतलक्ष्यं निर्विषयम् अस्थानकृतमपीत्यर्थः रेजे रागिणां स्खलितमपि शोभते इति भावः अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतो भुवो हरिसखाप्सरसां निदेशम् वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः अन्योन्येति अथ हरिसखाः इन्द्रसचिवाः गन्धर्वाः तेषाम् अप्सरसां च अन्योन्यरक्तमनसां परस्परानुरक्तचित्तानां चेतोभुवः कामस्य निदेशम् आज्ञां बिभ्रतीनां स्मरविधेयानां तासु रममाणश्चैवेत्यर्थः षष्ठी चानादरे इति षष्ठी विबोधः प्रबोधनं शीलं एषान्ते वैबोधिकाः वैतालिकाः शीलम् इति ठक् तेषां ध्वनिभिः मङ्गलरवैः विभावितः अभ्यूहितः ज्ञातः पश्चिमार्धः चरमभागः यस्यास्सा तथोक्ता सा रात्रिः संहृता संक्षिप्ते वेति उत्प्रेक्षा सुखिनां भूयानपि कालः लघीयानिव भवतीति भावः परिवृत्तिं विवृत्तिम् इयाय प्रभातकल्पा अभूदित्यर्थः निद्राविनोदितनितान्तरतिक्लमानाम् आयामि मङ्गलनिनादविबोधितानाम् रामासुभाविविरहाकुलितासु यूनाम् तत्पूर्वतामिव समादधिरेरतानि निद्रेति निद्रया विनोदितः अपनीतः नितान्तम् अत्यर्थं यः रत्याः क्लमः सः येषां तेषाम् आयामिभिः आयामवद्भिः दीर्घैः मङ्गलनिनादैः वैबोधिकध्वनिभिः विबोधितानां यूनां रामासु सुन्दरी रमणी रामा इत्यमरः भाविविरहेण आकुलितासु सतीषु रतानि तान्येव पूर्वाणि प्रथमानि तत्पूर्वाणि तेषां भावः तत्पूर्वता ताम् भावे तल्प्रत्ययः समादधिरे प्रापुरिवेति उत्प्रेक्षा आद्यसुरतवत् आदरात् प्रवर्तन्ते इत्यर्थः यदुत्तरकालं दुर्लभं तदतितृष्णया अनुभूयते इत्यर्थः कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकाररजनी परिवृत्तिवायुः कान्तेति सुरतखेदेन निमीलितानि अक्षीणि येन तं कान्ताजनं स्त्रीसमूहं संवाहितुं सेवितुमिव खेदापनोदार्थम् अङ्गमर्दनं कर्तुमिवेत्यर्थः संवाहनं वाहनेऽपि नरादेरङ्गमर्दने इति विश्वः वाहृप्रयत्ने इति धातोः अण्यन्तात् तुमुन् अन्यथा निज्ग्रहणे संवाहयितुमिति स्यात् मन्दमन्दं मन्दप्रकारं प्रकारे गुणवचनस्य इति द्विर्भावे कर्मधारयवद्भावात् सुपो लुक् समुपयान् संवान् रजनीपरिवृत्तिवायुः निशावसानमरुत् हर्म्येषु माल्यानि च मदिरा च परिभोगः विमर्दश्च तेषां गन्धान् आविश्चकार बहिः प्रसारयामासेत्यर्थः अत्र संवाहितुमिवेति उत्प्रेक्षा मान्द्यगुणमूलत्वात् गुणनिमित्तक्रियाफलोत्प्रेक्षा आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभाम्बबन्धवदनेषु मदावशेषः आमोदेति आमोदेन मध्यगन्धेन वासिताः सुरभिताः चलाः दष्टमुक्तत्वात् स्फुरन्तश्च अधरपल्लवाः येषु तेषु निद्रया कषायितानि अपटूकृतानि विपाटलानि लोचनानि येषु तेषु कषायस्तु वरेण स्त्री निर्यासे रञ्जकादिके सुरभावपटौ रक्ते सुन्दरे लवणेऽपि च इति केशवः व्यामृष्टानि प्रमृष्टानि पत्राणि तिलकाश्च येषां तेषु विलासिनीनां वदनेषु मदावशेषः शोभां बबन्ध मण्डनान्तरापाये मदशेष एव मण्डनं बभूव इत्यर्थः स्त्रीणां मद एव विभूषणमिति भावः गतवति नखलेखालक्ष्यतामङ्गरागे समदनयितपीता ताम्रबिम्बाधराणाम् विरहविधुरमिष्टा सत्सखीवाङ्गनानाम् हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः गतवतीति अङ्गरागे अङ्गविलेपने नखलेखासु नखपदेषु लक्ष्यतां दृश्यतां गतवति सति विमर्दात् तन्मात्रावशेषे सतीत्यर्थः किञ्च बिम्बतुल्याः अधराः बिम्बाधराः शाकपार्थिवादित्वात् मध्यमपदलोपी समानाधिकरणसमासः इति वामनः समदैः दयितैः पीताः पीडिताः अत एव अतिपीडनात् आताम्राः आसमन्तात् रक्तबिम्बाधराः यासां तासाम् अङ्गनानां सम्बन्धि विरहेण आह्निकेन वियोगेन विधुरं विह्वलं हृदयं रात्रिसम्भोगलक्ष्मीः नखपदादिशोभा इत्यर्थः इष्टा आप्ता सत्सखीव निपुणसहचरीव अवललम्बे धारयामास प्रियसम्भोगचिह्नशोभा स्पष्टा बभूवेत्यर्थः प्रियोपभोगचिह्नशोभावलोकनलालसाः कथं विरहम् असहन्त इत्यर्थः श्रुतिपूर्णोपमालङ्कारः मालिनीवृत्तं लक्षणं तु उक्तम् इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां नवमः सर्गः समाप्तः।